अथ ध्यान पारमिता नाम अष्टमः परिच्छेदः। वर्धयित्वैव मुत्साहं समादौ स्थापयन् मनः, विक्षिप्तचित्तस्तु नरः क्लेशदंष्ट्रान्तरे स्थितः। कायचित्तविवेकेन विक्षेपस्य न सम्भवः, तस्माल्लोकं परित्यज्य वितर्कान् परिवर्जये। स्नेहान्न त्यज्यते लोको लाभादिषु च तृष्णया, तस्मादेतत्परित्यागे विद्वानेवं विभावये। समथेन विपश्यनासु युक्तः कुरुते क्लेशविनाशमित्यवेत्य, समथः प्रथमं गवेषणीयः स च लोके निरपेक्षयाभिरत्या। कस्यानित्येष्वनित्यस्य स्नेहो भवितुमर्हति, येन जन्मसहस्राणि द्रष्टव्यो न पुनः प्रियः। अपश्यन्नरतिं याति समाधौ न च तिष्ठति, न च तृप्यति दृष्ट्वापि पूर्ववद् बाध्यते तृषा। न पश्यति यथा भूतं संवेगादवहीयते, दह्यते तेन शोकेन प्रियसङ्गमकाङ्क्षया। तच्चिन्तया मुधा याति ह्रस्वमायुर्मुहुर्मुहुः, अशाश्वतेन मित्रेण धर्मो भ्रश्यति शाश्वतः। बालैसभागचरितो नियतं याति दुर्गतिं, नेष्यते विषभागश्च किं प्राप्तं बालसङ्गमात्। क्षणात् भवन्ति सुहृदो भवन्ति रिपवक्षणा, तोषस्थाने प्रकुप्यन्ति दुराराधाः पृथक् जनः। हितमुक्ताः प्रकुप्यन्ति वारयन्ति च मां हिता, अथ न श्रूयते तेषां कुपितायन्ति दुर्गतिम्। ईर्ष्योत्कृष्टात् समाद्वन्द्वो हीनान्मानस्तुतेर्मदः, अवर्णात् प्रतिघश्चेति कदा बालाद् हितं भवेत्। आत्मोत्कर्षः परावर्णः संसाररतिसङ्कथा, इत्याद्यवश्यमशुभं किञ्चिद् बालस्य बालतः। एवं तस्यापि तत्सङ्गात् तेनानर्थसमागमः, एकाकी विहरिष्यामि सुखमकृष्टमानसः। बालाद्दूरं पलायेत प्राप्तमाराधयेत् प्रियैः, न संस्तवानुबन्धेन किं तु दासीन साधुवत्। धर्मार्थमात्रमादाय भृङ्गवत्कुसुमान्मधु, अपूर्व इव सर्वत्र विहरिष्याम्य संस्तुतः। लाभी च सत्कृतश्चाहम् इच्छन्ति बहवश्च माम्। इति मर्त्यस्य सम्प्राप्तान् मरणाज्जायते भयम्। यत्र यत्र रतिं याति मनः सुख विमोहितं यत्तत् सहस्रगुणितं दुःखं भूत्वोपतिष्ठति तस्मात् प्राज्ञोनताम् इच्छेत् इच्छातो जायते भयम् स्वयमेव च यात्येतद् धैर्यं कृत्वा प्रतीक्षताम् बहवो लाभिनो भूवन् बहवश्च यशस्विनः सह लाभयशोभिस्ते न ज्ञाता क्व गता इति मामेवान्ये जुगुप्सन्ति किं प्रहिष्याम्यहं स्तुतः मामेवान्ये प्रशंसन्ति किं विषीदामि निन्दितः नानाधिमुक्तिकाः सत्त्वा जिनैरपि न तोषितः किं पुनर्मादृशैः अज्ञैस्तस्मात् किं लोकचिन्तया निन्दन्त्यलाभिनं सत्त्वम् अवध्यायन्ति लाभिनं प्रकृत्या दुःखसम्बासै कथं तैर्जायते रतिः न बालः कस्यचिन्मित्रम् इति चोक्तं तथा गतैः न स्वार्थेन विना प्रीतिर्यस्मद् बालस्य जायते स्वार्थद्वारेण या प्रीतिः आत्मार्थं प्रीतिरेव सा द्रव्यनाशे यथोद्वेगः सुखहानिकृतो हि सः नावध्यायन्ति तरवो न चाराध्या प्रयत्नतः कदा तैः सुखसम्बासै सहवासो भवेन्मम शून्यदेवकुले स्थित्वा वृक्षमूले गुहासु वा कदा नपेक्ष्यो यास्यामि पृष्ठतो नवलोकयन् अममेषु प्रदेशेषु विस्तीर्णेषु स्वभावतः स्वच्छन्दचार्यनिलयो विहरिष्याम्यहं कदा मृत्पात्रमात्र विभवस् चौरासंभागचीवरः निर्भयो विहरिष्यामि कदा कायमगोपयन् कायभूमिं निजं गत्वा कङ्कालैः अपरैः सह स्वकायं तुलयिष्यामि कदा सतनधर्मिणम् अयमेव हि कायो मे एवं पूतिर्भविष्यति श्रीगालापि यद्गन्धान् नोपसर्पेयुरन्तिकम् अस्यैकस्यापि कायस्य सहजा अस्ति खण्डकः पृथक् पृथक् गमिष्यन्ति किमु तान्यः प्रियोजनः एक उत्पद्यते जन्तुर्म्रियते चैक एव हि नान्यस्य तद्व्यथा भागः किं प्रियैर्विघ्नकारकै अध्वानं प्रतिपन्नस्य यथा वासपरिग्रहः तथा भवाध्वगस्यापि जन्मावासपरिग्रहः चतुर्भिः पुरुषैर्यावत् स न निर्धार्यते ततः आशोच्यमानुलोकेन तावदेव वनं व्रजे असंस्तवा विरोधाभ्याम् एक एव शरीरकः पूर्वमेव मृतो लोके म्रियमाणो न शोचति न चन्ति कसरा केचित् शोचन्तः कुर्वते व्यथां बुद्धाद्यनुस्मृतिं चास्य विक्षिपन्ति न केचन तस्मादेकाकिता रम्या निरायासा शिवोदया सर्वविक्षेपशमनी सेवितव्या मया सदा सर्वान्यचिन्ता निर्मुक्तः स्वचित्तैकाग्रमानसः समाधानाय चित्तस्य प्रयतिस्येदमाय च कामाह्यनर्थजनका इह लोके परत्र च इह बन्धवदोच्छेदैर्नरकादौ परत्र च यदर्थं दूतदूतीनां कृताञ्जलिरनेकधा न च पापमकीर्तिर्वा यदर्थं गणिता पुरा प्रक्षिप्तश्च भयेऽप्यात्मा द्रविणं च व्ययीकृतं यान्येव च परिष्वज्य बभूवोत्तमनिर्वृतिः तान्येवास्थीनि नान्यानि स्वाधीनान्यममानि च प्रकामं सम्परिष्वज्य किं न गच्छसि निर्वृतिम् उन्नाम्यमानं यत्नात् यन् नीयमानमधो ह्रिया पुरा दृष्टमदृष्टं वा मुखं जालिकयावृतम् तन्मुखं त्वत्परिक्लेश मसहद्वीरिवाधुना गृध्रैर्व्यक्तिकृतं पश्य किमिदानीं पलायसे परचक्षुर्निपातेभ्यो प्यासिद् यत्परिरक्षितं तदद्य भक्षितं यावत् किमीर्ष्यालो न रक्षसि मांसोच्छ्रयमिमं दृष्ट्वा गृध्रैरन्यैश्च भक्षितम् आहारः पूज्यतेऽन्येषां स्रक्चन्दनविभूषणैः निश्चलादपि ते त्रासः कङ्कालादेवमीक्षिता वेतालेनैव केनापि चाल्यमानदभयं न किम् एकस्मादसनादेशां लालामेध्यं च जायते तत्रामेध्यमनिष्टं ते लालापानं कथं प्रियं तूलगर्भैर्मृदुस्पर्शैः रमन्ते नोपधानकैः दुर्गन्धं न स्रवन्तीति कामिनो मेध्यमोहितः यत्र छन्नेप्ययं रागस्तदच्छन्नं किमप्रियम् न चेत्प्रयोजनं तेन कस्माच्छन्नं विमृद्यते यदि तेनाशुचौ रागः कस्मादालिङ्गसे परं मांसकर्दमसंलिप्तं स्नायुबद्धास्थिपञ्जरम् स्वमेव बह्वमेध्यं ते तेनैव धृतिमाचर अमेद्यवस्त्रामपरां गूथघस्मर विस्मर मांसप्रियोऽहमस्येति द्रष्टुं प्रष्टुं च वांछसि अचेतनं स्वभावेन मां स्वं त्वं कथमिच्छसि यदिच्छसि न तच्चित्तं द्रष्टुं स्प्रष्टुं च शक्यते यच्च शक्यं न तद्वेत्ति किं तदा लिङ्गसे मुधा नामेद्यमयमन्यस्य कायं वेत्सित्यनद्भुतं स्वामेध्यमयमेव त्वं तं न वैशीति विस्मयः विघ्नार्कांशु विकचं मुक्त्वा तरुणपङ्कजम् अमेध्यसौण्डचित्तस्य कारतिर्गूथपञ्जरे मृदाद्यमेद्यलिप्तत्वात् यदि न स्प्रष्टुमिच्छसि यतस्तन्निर्गतं कायात् तं प्रष्टुं कथमिच्छसि यदि तेनाशुचौ रागः कस्मादालिङ्गसे परम् अमेद्यक्षेत्रसम्भूतं तद्बीजं तेन वर्धितम् अमेद्यभवमल्पत्वान् न वाञ्छस्य शुचिं कृमिं बह्वमेध्यमयं कायम् अमेध्यजमपीच्छसि न केवलममेध्यत्वम् आत्मीयं न जुगुप्ससि अमेध्यभाण्डान् अपरान् गूथघस्मरवाञ्छसि कर्पूरादिषु हृद्येषु शल्यन्न व्यञ्जनेषु वा मुखक्षिप्तविसृष्टेषु भूमिरप्यशुचिर्मता यदि प्रत्यक्षमप्येतद् अमेध्येनाधिमुच्यसे श्मशाने पतितान् घोरान् कायान् पश्यापरानपि शर्मण्युत्पाटिते यस्मात् भयमुत्पद्यते महत् कथं ज्ञात्वापि तत्रैव पुनरुत्पद्यते रतिः काये न्यस्तोऽप्यसौ गन्धः चन्दनादेव नान्यतः अन्यदीयेन गन्धेन कस्मादन्यत्र रज्यसे यदि स्वभावदौर्गन्ध्यात् रागो नात्र शिवं ननु किमनर्थरुचिर्लोकस्तं गन्धेनानुलिम्पति कायस्यात्र किमायातं सुगन्धि यदि चन्दनम् अन्यदीयेन गन्धेन कस्मादन्यत्र रज्यते यदि केशनखैर्दीर्घैर्दन्तैः समलपाण्डुरै मलपङ्कधरो नग्नः कायः प्रकृतिभीषणः स किं संस्क्रियते यत्नात् आत्मघाताय शस्त्रवत् आत्मव्यामोहनोद्युक्तैः उन्मत्तैराकुलामही कङ्कालान् कतिचिद् दृष्ट्वा श्मशाने किल ते घृणा ग्रामश्मशाने रमसे चलत्कङ्कालसङ्कुले एवं चामेयमप्येतद् विना मूल्यं न लभ्यते तदर्थमर्जनायासो नरकादिषु च व्यथा शिशोर्नर्जनसामर्थ्यं केनासौ यौवने सुखी यात्यर्जनेन तारुण्यं वृद्धः कामै करोति किम्। केचित् दिनान्त व्यापारै परिश्रान्ता कुकामिनः, गृहमागत्य सायाह्ने शेरते स्म मृता इव। दण्डयात्राभिरपरे प्रवासक्लेशदुःखितः, वत्सरैरपि नेक्षन्ते पुत्रदारांस्तदर्थिनः। यदर्थमेव विक्रीत आत्मा कामविमोहितै, तन्न प्राप्तं मुदैवायुर्नीतं तु परकर्मणा। विक्रीतस्वात्मभावानां सदा प्रेषणकारिणां, प्रसूयन्ते स्त्रियोन्येषाम् अटवी विटपादिषु। रणं जीवितसन्देहं विशन्ति किल जीवितं, मानार्थं दासतां यान्ति मूढा कामविडम्बितः। छिद्यन्ते कामिनः केचिद् अन्ये शूलसमर्पितः, दृश्यन्ते दह्यमानाश्च हन्यमानाश्च शक्तिभिः। अर्जनरक्षणनाशविषादै अर्थमनर्थमन्तमवेहि, व्यग्रतया धनसक्तमतीनां नावसरो भव दुःख विमुक्ते। एवमादीनवो भूयान् अल्पास्वादस्तु कामिनां, सकटं वहतो यद्वत् पशुर्घासलवग्रहः। तस्यास्वादलवस्यार्थे यः पशोरप्यदुर्लभः, हता दैव हते नेयं क्षणसम्पत्सु दुर्लभा। अवश्यं गन्तुरल्पस्य नरकादिप्रपातिनः, कायस्यार्थे कृतो योऽयं सर्वकालं परिश्रमः। ततः कोटिशतेनापि श्रमभागेन बुद्धता, चर्या दुःखान्महद्दुःखं सा न बोधिर्न कामिनां। न शस्त्रं न विषं नाग्निर्न प्रपातो न वैरिणः, कामानाम् उपमां यान्ति नरकादिव्यथास्मृतेः। एवमुद्विज्य कामेभ्यो विवेके जनयेद् रतिम्, कलहायासशून्यासु शान्तासु वनभूमिषु। धन्यैः शङ्करचन्दनशीतलेषु, रम्येषु हर्म्यविपुलेषु शिलातलेषु, निःशब्दसौम्यवनमारुतवीज्यमानै, संक्रम्यते परहिताय विचिन्त्यते च। विहित्य यत्र क्वचिदिष्टकालं शून्यालये वृक्षतले गुहासु, परिग्रहारक्षणखेदमुक्तः शरत्यपेक्षा विरतो यथेष्टम्। स्वच्छन्दचार्यनिलयः प्रतिबद्धो न कस्यचित्, यत्सन्तोषसुखं भुङ्क्ते तदिन्द्रस्यापि दुर्लभम्। एवमादिभिराकारैर्विवेक गुणभावना उपशान्त वितर्कः सन् बोधिचित्तं तु भावये परात्मसमतामादौ भावये देवमादरा समदुःखसुखा सर्वे पालनीया मयात्मवत् हस्तादिभेदेन बहुप्रकारः कायो यथैकः परिपालनीयः तथा जगद्भिन्नमभिन्नदुःख सुखात्मकं सर्वमिदं तथैव यद्यप्यन्येषु देहेषु मद्दुःखं न प्रबाधते तथापि तद्दुःखमेव ममात्मस्नेहदुःसहम् तथा यद्यप्यसंवेद्य मन्यद्दुःखं मयात्मना तथापि तस्य तद्दुःखम् आत्मस्नेहेन दुःसहम् मयान्यदुःखं हन्तव्यं दुःखत्वात् आत्मदुःखवत् अनुग्राह्या मयान्येऽपि सत्त्वत्वात् आत्मसत्त्ववत् यदा मम परेषां च तुल्यमेव सुखं प्रियं तदात्मनः को विशेषो येनात्रैव सुखोद्यमः यदा मम परेषां च भयं दुःखं च न प्रियम् तदात्मनः को विशेषो यत्तं रक्षामि नेतरम् तद्दुःखेन न मे बाधेत् त्यसौ यदि न रक्षते नागामिकाय दुःखान्मे बाधा तत्केन रक्षते अहमेव तदापीति मिथ्येयं परिकल्पना अन्य एव मृतो यस्मात् अन्य एव प्रजायते यदि तस्यैव तद्दुःखं रक्ष्यं तस्यैव तन्मतम् पाददुःखं न हस्तस्य कस्मात् तत्तेन रक्षते अयुक्तमपि चेदेतद् अहङ्कारात् प्रवर्तते तदयुक्तं निवर्त्यं तत् स्वमन्यच्च यथा बलम् सन्तानः समुदायश्च पङ्क्तिसेनादिवन्मृषा यस्य दुःखं न नास्त्यस्मात् कस्य तत्स्वं भविष्यति अस्वामिकानि दुःखानि सर्वाण्येवाविशेषतः दुःखत्वादेव वार्याणि नियमस्तत्र किं कृतः दुःखं कस्मान्निवार्यं चेत् सर्वेषाम् अविवादतः वार्यं चेत् सर्वमप्येवं न चेदात्मापि सत्त्ववत् कृपया बहु दुःखं चेत् कस्मादुत्पद्यते बला जगद्दुःखं निरूप्येदं कृपादुःखं कथं बहु बहूनामेकदुःखेन यदि दुःखं विगच्छति उत्पाद्यमेव तद्दुःखं सदयेन परात्मनोः अतः सुपुष्पचन्द्रेण जानतापि नृपापदम् ఆత్మదుఃఖం న నిహతం బహూనాం దుఃఖినాం వ్యయా. ఏవం భావిత సంతానా పరదుఃఖ సమప్రియః అవీచిం అవగాహంతే హంసా పద్మవనం యథా. ముచ్యమానేషు సత్వేషు ఏతే ప్రామోద్య సాగరః తైరేవ నను పర్యాప్తం మోక్షేణారసికేన కిం. అతః పరార్థం కృత్వాపి నమదో న చ విస్మయః న విపాకఫలాకాంక్షా పరార్థైకాంతతృష్ణయా. తస్మాత్ యథాంత సువర్ణాత్ ఆత్మానం గోపయామ్యహం. రక్షా చిత్తం దయా చిత్తం కరోమ్యేవం పరేష్వపి. అభ్యాసాత్ అన్యదీయేషు శుక్రశోణిత విందుషు భవత్యహమితి జ్ఞానం అసత్యపి హి వస్తుని. తథా కాయోన్యదీయోపి కిమాత్మేతి న గ్రీహ్యతే. పరత్వం తు స్వకాయస్య స్థితమేవ న దుష్కరం. జ్ఞాత్వా సదోషమాత్మానం పరాన విగుణో దధిన్. ఆత్మభావ పరిత్యాగం పరదానం చ భావయే. కాయస్యావయవత్వేన యథాభీష్టాకరాదయః. జగతో వయవత్వేన తథా కస్మాన్న దేహినః. యథాత్మబుద్ధిరభ్యాసాత్ స్వకాయేస్మిన్ నిరాత్మకే. పరేష్వపి తథాత్మత్వం కిమభ్యాసాన్న జాయతే. ఏవం పరార్థం కృత్వాపి నమదో న చ విస్మయః. ఆత్మానం భోజయిత్వైవ ఫలాశా న చ జాయతే. తస్మాత్ యథార్థి శోకాదేః ఆత్మానం గోప్తుమిచ్ఛసి. రక్షా చిత్తం దయా చిత్తం జగత్యభ్యస్యతాం తథా. అధ్యతిష్టదతో నాథః స్వనామాప్యవలోకితః. పర్షత్సారద్య భయమప్యపనేతుం జనస్య హి. దుష్కరాన్న నివర్తేత యస్మాత్ అభ్యాసశక్తితః. యస్యైవ శ్రవణాత్రాసస్ తేనైవ న వినారతిః. ఆత్మానం చాపరాంశ్చైవ యః శీఘ్రం త్రాతుమిచ్ఛతి. స చరేత్ పరమం గుహ్యం పరాత్మపరివర్తనం. యస్మిన్నాత్మన్యతి స్నేహాత్ అల్పాదపి భయాద్ భయం. న ద్విషేత్ కస్తమాత్మానం శత్రువద్యో భయావహః. యో మాద్యంచ్యుత్పిపాసాది ప్రతీకార చికీర్షయా. పక్షిమత్స్య మృగాన్ హంతి పరిపంథం చ తిష్ఠతి. యో లాభ సత్క్రియా హేతుః పితరౌ అపి మారయే. రత్నత్రయ స్వమాదద్యాద్ ఏనా విచిందనో భవే. కః పండితస్తమాత్మానం ఇచ్ఛేత్ రక్షేత్ ప్రపూజయే. న పశ్యేత్ శత్రువచ్చైనం கஷ்டைனம் பிரதிமானயே யதி தாஸ்யாமி கிம் போக்ஷே இத்யாத்மார்த்தே பிசாசதா கிம் போக்ஷே கிம் ததாமீதி பரார்த்தே தேவராஜதா ஆத்மார்த்தம் பீடயித்வான்யம் நரகாதிசு பச்யதே ஆத்மானம் பீடயித்வா து பரார்த்தே சர்வசம்பதஹ துர்கதிர் நீசதா மௌர்க்யம் ஜயைவாத்மோன்னதிச்சதா தாமேவான்யத்ர சங்க்ராம்ய சுகதி சத்க்ருதிர்மதிஹி ஆத்மார்த்தம் பரமாஜ்ஞப்ய தாசத்வாத்யனுபூயதே பரார்த்தம் த்வேனமாஜ்ஞப்ய ஸ்வாமித்வாத்யனுபூயதே ஏகேசித் துக்கிதா லோகே சர்வே தே ஸ்வசுகேச்சயா ஏகேசித் சுகிதா லோகே சர்வே தின்ய சுகேச்சயா பஹுனா வாக்கி முக்தேன த்ரிஷ்யதாமிதமந்தரம் ஸ்வர்தர்த்தினஸ்ச பாலஸ்ய முனேஸ்சான்யர்த்தகாரிணஹ நாம சாத்யம் புத்தத்வம் சம்சாரேபி குதஸ்ஸுகம் ஸ்வஸுகஸ்யான்ய துக்கேன பரிவர்த்தம குர்வதஹ ஆஸ்தாம் தாவத் பரோ லோகே த்ரிஷ்டோப்யர்த்தோ ந சித்யதி ப்ரித்யஸ்ய குர்வதஹ கர்ம ஸ்வாமினோ தததோ ப்ரிதிம் த்யக்த்வான்யோன்ய சுகோத்பாதம் த்ரிஷ்டா த்ரிஷ்ட சுகோத்சவம் அன்யோன்ய துக்கநாத் கோரம் துக்கம் க்ருண்ணந்தி மோஹிதா உபத்ரவாயேச பவந்தி லோகே யவந்தி துக்கானி பயானி சைவ சர்வாணி தான்யாத்ம பரிக்ரஹேண தத் கிம் மமானேன பரிக்ரஹேண ஆத்மானம் அபரித்யஜ்ய துக்கம் த்யக்தும் ந சக்யதே யதாக்னிம் அபரித்யஜ்ய தாஹம் த்யக்தும் ந சக்யதே தஸ்மாத் ஸ்வதுக்க சாந்த்யர்த்தம் பரதுக்க ஸமாய ச ததாம்யன்யேப்ய ஆத்மானம் பரான் க்ருண்ணாமி சாத்மவத் அன்ய சம்பத்தமஸ்மீதி நிச்சயம் குரு மே மனஹ சர்வசத்வார்த்தமுத்ஸ்ருஜ்ய நான்ய சிந்த்யம் த்வயாதுனா ந யுக்தம் ஸ்வார்த்த த்ருஷ்ட்யாதி ததீயைஷ் சக்ஷுராதிபிஹ ந யுக்தம் ஸ்பந்திதம் ஸ்வார்த்தம் அந்யதீயைஹ் கராதிபிஹ தேன சத்வபரோ பூத்வா காயஸ்மின் யத்யதீக்ஷஸே தத்ததேவாபஹத்யாஸ்மாத் பரேப்யோ ஹிதமாசர ஹீனாதி ஸ்வாத்மதாம் க்ருத்வா பரத்வமபி சாத்மனி பாவ ஏர்ஷ்யாம் ச மானம் ச நிர்விகல்பேன சேதசா ஏஷ சத்க்ரியதே நாஹம் லாபீநாஹமயம் யதா स्तूयतेयमहं निन्द्यो दुःखितोऽहमयं सुखी। अहं करोमि कर्माणि तिष्ठत्ते स तु सुस्थितः, अयं किल महाल्लोके नीचोऽहं किल निर्गुणः। किं निर्गुणेन कर्तव्यं सर्वस्यात्मा गुणान्वितः, सन्ति ते स्वहं नीचः, सन्ति ते स्वहं वरः। शीलदृष्टिविपत्यादि क्लेशशक्त्या न मद्वशात् चिकित्स्योऽहं यथाशक्ति, पीडाप्यङ्गीकृता मया। अथाहमचिकित्स्योऽस्य कस्मान्माम् अवमन्यसे, किं ममैतद्गुणैः कृत्यम्, आत्मा तु गुणवानयम्। दुर्गति व्यालवक्त्रस्थे नैवास्य करुणाजने, अपरं गुणमानेन पण्डितान् विजिगीषते। समम् आत्मानमालोक्य यतस्वाधिक्यवृद्धये, कलहेनापि संसाध्यं लाभसत्कारमात्मनः। अपि सर्वत्र मे लोके भवेयु प्रकटा गुणः, अपि नाम गुणा यस्य न श्रोष्यन्त्यपि केचन। साध्येरन्नपि मे दोषा स्यन्मे पूजास्य नो भवे, सुलब्धा अद्य मे लाभा पूजितोऽहमयं न तु। पश्यामो मुदितास्तावत् चिरादेनं खलीकृतम्, हास्यं जनस्य सर्वस्य निन्द्यमानमितस्ततः। अस्यापि हि वराकस्य स्पर्धा किल मया सह, किमस्य श्रुतमेतावत् प्रज्ञारूपं कुलं धनम्। एवमात्मगुणान् श्रुत्वा कीर्त्यमानान् इतस्ततः, सञ्जातपुलको हृष्टः परिभोक्षे सुखोत्सवम्। यद्यप्यस्य भवेल्लाभो ग्राह्योऽस्माभिरसौ बला, दत्त्वास्मै यापनामात्रम् अस्मत् कर्म करोति चेत्। सुखाच्च चावनीयोऽयं युज्यस्मद्व्यथया सदा, अनेन शतशः सर्वे संसारव्यथिता वयम्। अप्रमेया गता कल्पः स्वार्थं जिज्ञासतस्तव, श्रमेण महतानेन दुःखमेव त्वयार्जितम्। मद्विज्ञप्त्या तथात्रापि प्रवर्तस्वाविचारतः, द्रक्ष्यस्येतद्गुणान् पश्चात् भूतं हि वचनं मुनेः। अभविष्यद् इदं कर्म कृतं पूर्वं यदि त्वया, बौद्धं सम्पत् सुखं मुक्त्वा न भविष्यद्यं दशा। तस्माद्यथान्यदीयेषु शुक्रशोणितबिन्दुषु सकर्थ त्वमहङ्कारं तथान्यस्वपि भावय। अन्यदीयस्तरो भूत्वा कायेस्मिन् यद्यदीक्षसे तत्तदेवापहृत्याथ परेभ्यो हितमाचर। अयं सुस्थः परो दुस्थो नीचैरन्योऽयमुच्चकै परः करोत्ययं नेति कुरुष्वेर्ष्यं त्वमात्मनि। सुखाच्च चावयात्मानं परदुःखे नियोजय कदायं किं करोतीति फलमस्य निरूपय। अन्येनापि कृतं दोषं पातयास्यैव मस्तके अल्पमप्यस्य दोषं च प्रकाशय महाजने। अन्याधिकयशो वादैर्यशोस्य मलिनीकुरु निकृष्टदासवच्चैनं सत्त्वकार्येषु वाहय। नागन्तुकगुणांसेन स्तुत्यो दोषमयो ह्ययम् यथा कश्चिन्न जानीयात् गुणमस्य तथा कुरु। संक्षेपात् यद्यदात्मार्थे परेष्वपकृतं त्वया तत्तदात्मनि सत्त्वार्थे व्यसनं विनिपातय। नैवोत्साहोऽस्य दातव्यो येनायं मुखरो भवे स्थाप्यो नववधूवृत्तौ भ्रीतो भीतोऽथ संभृतः। त्वं कुरुष्व तिष्ठैवं न कर्तव्यमिदं त्वया एवमेव वशः कार्यो निग्राह्यस्तदतिक्रमे। अथैव मुच्यमानेऽपि चित्तं नेदं करिष्यसि त्वामेव निग्रहीष्यामि सर्वदोषास्त्वदाश्रितः। को यास्यसि मया दृष्टः सर्वदर्पान्निहन्मिते। अन्योऽसौ पूर्वकः कालस् त्वया यत्रास्मिनाशितः। अद्याप्यस्ति मम स्वार्थ इत्यासां त्यज साम्प्रतं त्वं विक्रीतो मयान्येषु बहुखेदमचिन्तयन्। त्वां सत्त्वेषु न दास्यामि यदि नाम प्रमोदतः। त्वं मां नरकपालेषु प्रदास्यसि न संशयः। एवं चानेकधा दत्त्वा त्वयाहं व्यथितश्चिरं निहन्मि स्वार्थचेतं त्वां तानि वैराण्यनुस्मरन्। न कर्तव्यात्मनि प्रीतिर् यद्यात्मप्रीतिरस्ति ते। यद्यात्मा रक्षितव्योऽयं रक्षितव्यो न युज्यते। यथा यथास्य कायस्य क्रियते परिपालनम् सुकुमारतरो भूत्वा पतत्येव तथा तथा। अस्यैवं पतितस्यापि सर्वापीयं वसुन्धरा नालं पूरयितुं वाञ्छां तत्कोश्येच्छां करिष्यति। असक्यम इच्छत क्लेश आशा भंगश्च जायते निराशो यस्तु सर्वत्र तस्य संपद जीर्णिका तस्मान्न प्रसरो देयः कायस्येच्छाभिवृद्धये भद्रकं नाम तद्वस्तु यदिष्टत्वान्न गृह्यते भस्मनिष्ठावसानेयं निश्चेष्टान्येन चाल्यते अशुचि प्रतिमा घोरा कस्माद् अत्र ममाग्रहः किं ममानेन यन्त्रेण जीविना वा मृतेन वा लोष्टादेः को विशेषोऽस्य हाहंकार न नश्यसि शरीरपक्षपातेन वृथा दुःखमुपार्ज्यते किमस्य काष्ठतुल्यस्य द्वेषेणानुनयेन वा मया वा पालितस्यैवं गृध्राद्दैर्भक्षितस्य वा न च स्नेहो न च द्वेषस् तत्र स्नेहं करोमि किम् रोषो यस्य खलीकारात् तोषो यस्य च पूजया स एव चिन्न जानाति श्रमः कस्य कृतेन मे इमम् एकायमिच्छन्ति तेऽपि मे सुहृदः किल सर्वे स्वकायमिच्छन्ति तेऽपि कस्मान्न मे प्रियः तस्मान्मयानपेक्षेण कायस्त्यक्तो जगद्धिते अतोऽयं बहुदोषोऽपि धार्यते कर्मभाण्डवत् तेनालं लोकचरितैः पण्डितानुयाम्यहम् अप्रमादकथां स्मृत्वा स्त्यानमिद्धं निवारयन् तस्मात् आवरणं हन्तुं समाधानं करोम्यहं विमार्गाच्चित्तमाकृष्य स्वालम्बननिरन्तरं विमार्गाच्चित्तमाकृष्य स्वालम्बननिरन्तरं विमार्गाच्चित्तमाकृष्य स्वालम्बननिरन्तरम् इति श्री शान्तिदेव विरचिते बोधिचर्यावतारे ध्यानपारमिता नाम अष्टमः परिच्छेदः ॐ